सभी को हमारा प्यार भरा नमस्कार। आज हम आपके साथ गीता का 9वां अध्याय करने जा रहे हैं। गीता पाठ शुरू करने से पहले भगवान श्री कृष्ण का हम थोड़ा सा ध्यान करते हैं और अपनी एक छोटी सी प्रार्थना से शुरू करते हैं।
वसुदेव सुतं देवं कंस चारुण मर्दनम देवकी परमानंदं कृष्णं वंदे जगद्गुरुं कृष्णं वंदे जगद्गुरुं ओम श्री परमात्मने नमः। श्रीमद् भगवद् गीता अथ नवमोऽध्यायः। श्री भगवान् उवाच
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसे सुभात्। राजविद्या राजगुह्यं पवित्रमिदमुत्तमं प्रत्यक्षावगमन् धर्म्यं सुसुखं कर्तुमव्ययम्। अश्रद्धदानाः पुरुषा धर्मस्यास्य परन्तप अप्राप्यमान निवर्तन्ते मृत्यु संसारवर्त्मनि। मया ततमिदं सर्वै जगदाव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहन्तेष्वस्थितः न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्। भूतभृन्न च भूतस्थो ममात्मा भूतभावनः यथा काशष्ठितो नित्यं वायुः सर्वत्र वो महान् तथा सर्वाणि भूतानि मत्स्थानि इत्युपधारयः। सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकां कल्पक्षये पुनस्थानि कल्पादौ विसृजाम्यहम्। प्रकृतिं स्वामवष्टव्य विसृजामि पुनः पुनः भूतग्राममिमान् कृत्स्नम् अवशं प्रकृतेर्वशात्। न च मान्तानि कर्माणि निबध्नान्ति धनञ्जय उदासीनवदासीनम् अशक्तन्तेषु कर्मसु। मयाध्यक्षेण प्रकृतिस्सूयते सचराचरम् हेतुनानेन कौन्तेय जगद्विपरिवर्तते। अवजानन्ति मा मूढा मानुषीं तनुमाश्रितम् परं भावमजानन्तो मम भूतमहेश्वरम्। मोघक्षामोघकर्माणो मोघज्ञानविचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रितः। महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रितः भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्। सततं कीर्तयन्तो मां यतन्तश्च दृढकृतः नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते। ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते एकत्वेन प्रकत्वेन बहुधा विश्वतो मुखम्। अहं कर्तुरहं यज्ञस् स्वधाहमहमौषधम् मन्त्रोऽहमहमेवाज्यम् अहम् अग्निरहं हुतम्। पिताहमस्य जगतो माता धाता पितामहः वेद्यं पवित्रमोङ्कार रक्षाम यजुरेव च गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत्। प्रभवः प्रलयस्थानं निधानं बीजमव्ययम् तपाम्यहमहं वर्षन् निकृणां युत्सृजामि च अमृतेन चैव मृत्युश्च सदा सच्चाहमर्जुनः। त्रैविद्यामां सोमपाः पूतपापा यज्ञे ऋष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यान् दिविदेवभोगान् ते तं भुक्त्वा स्वर्गलोकं विशालम् क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रैधर्ममनोप्रपन्ना गतागतं कामकामालभन्ते अनन्यया शुचिन्तयन्तो मां ये जनः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् येऽप्यन्यद्देवता भक्ता यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय याजन्त्यविधिपूर्वकम् अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु माम् अभिजानन्ति तत्त्वे नातश्च वन्ति ते यान्ति देवव्रता देवान् मृत्यु यान्ति पृथव्रताः भूतानि यान्ति भूते च यान्ति मद्याजिनोऽपि माम् पत्रं पुष्पं फलं तोयं ये यो मे भक्त्या प्रयच्छति तदहं भक्त्युप्रहृतम् अश्नामि प्रयतात्मनाः यत्करोषि यदश्नाषि यज्जुहोषि ददाशि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् शुभाशुभफलैरेवम् मोक्षसे कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्त्या मयि तेषु चाप्यहम् अपि चेत् सुदुराचारो भजते मां नन्यभात् साधुरेव च मन्तव्यस्सम्यग् व्यवस्थितो हि सः क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति मां हि पार्थ व्यपाश्रित्य तेऽपि शुभ पापयो नियः स्त्रियो वैश्यास्तथा स्तोत्रस्तेऽपि यान्ति पराङ्गतिम् किं पुनर्ब्राह्मणः पुण्या भक्ता राजशयस्ततः अनित्यमसुखं लोकम् इमं प्राप्य भजस्व माम् मान्मना भवं मद्भक्तो मद्याजी मां नमस्कुरु मामि वैश्यसि युक्वैवम् आत्मानं मत्परायणः ॐ तत्सदिति श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्या राजगुह्ययोगो नाम नवमोऽध्यायः हरे नमः हरे नमः हरे नमः ॐ श्रीकृष्णार्पणनमस्तु
योगेशं सच्चिदानन्दं वासुदेवं व्रजप्रियं धर्मसंस्थापकं वीरं कृष्णं वन्दे जगद्गुरुं कृष्णं वन्दे जगद्गुरुम्